ध्यायेत् कोटिरविप्रभं त्रिनयनं सीतांशुगङ्गाधरम् दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्मोद्यतं वह्निं दोलमधाभयं डमरुकं वामे स्थितां श्यामलां कल्हारां जपसृक्षुकां कटिकरां देवीं सभेशीं सदा।